स्नात्वा प्रत्यूषकाले स्नात्वा प्रत्यूषकाले स्नपनविधिविधौ स्नपनविधिविधौ नाहृतं गाङ्गतोऽयं नाहृतं गाङ्गतोऽयं पूजार्थं वा कदाचित् पूजार्थं वा कदाचित् बहुतरगहने खण्डबिल्वीदळं वा बहुतरगहने खण्डबिल्वीदळं वा नानीता पद्ममाला नानीता पद्ममाला सरसि विकसिता गन्धपुष्पैस्त्वदर्थं गन्धपुष्पैस्त्वदर्थं क्षन्तव्यो मे पराधः क्षन्तव्यो मे पराधः शिव 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 भो श्री महादेव शम्भो शिव 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 भो श्री महादेव शम्भो स्नात्वा प्रत्यूषकाले स्नपनविधिविधौ नाहृतं गाङ्गतोऽयं पूजार्थं वा कदाचित् बहुतरगहने खण्डबिल्वीदळं वा नानीता पद्ममाला सरसि विकसिता गन्धपुष्पैस्त्वदर्थं क्षन्तव्यो मे पराधः शिव 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 भो श्री महादेव शम्भो दुग्धैर्मध्वाज्ययुक्तैर्दधिगुडसहितैः दुग्धैर्मध्वाज्ययुक्तैर्दधिगुडसहितैः स्नापितं नैव लिङ्गम् स्नापितं नैव लिङ्गम् नोलिप्तं चन्दनाद्यैः नोलिप्तं चन्दनाद्यैः कनकविरचितैः पूजितं न प्रसूनैः कनकविरचितैः पूजितं न प्रसूनैः धूपैः कर्पूरदीपैर्विविधरसयुतैर्नैव भक्ष्योपहारैः धूपैः कर्पूरदीपैर्विविधरसयुतैर्नैव भक्ष्योपहारैः क्षन्तव्यो मे पराधः क्षन्तव्यो मे पराधः शिव 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 भो श्री महादेव शम्भो शिव 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 भो श्री महादेव शम्भो दुग्धैर्मध्वाज्ययुक्तैर्दधिगुडसहितैः स्नापितं नैव लिङ्गं नोलिप्तं चन्दनाद्यैः कनकविरचितैः पूजितं न प्रसूनैः धूपैः कर्पूरदीपैर्विविधरसयुतैर्नैव भक्ष्योपहारैः क्षन्तव्यो मे पराधः शिव 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 भो श्री महादेव शम्भो नो शक्यं स्मार्तकर्म नो शक्यं स्मार्तकर्म प्रतिपदगहने प्रतिपदगहने प्रत्यवायाकुलाढ्ये प्रत्यवायाकुलाढ्ये श्रौते वार्ता कथं मे श्रौते वार्ता कथं मे द्विजकुलविहिते द्विजकुलविहिते ब्रह्ममार्गानुसारे ब्रह्ममार्गानुसारे तत्त्वे ज्ञाते विचारे तत्त्वे ज्ञाते विचारे श्रवणमननयोः श्रवणमननयोः किं निदिध्यासितव्यं किं निदिध्यासितव्यं क्षन्तव्यो मे पराधः क्षन्तव्यो मे पराधः शिव 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 भो श्री महादेव शम्भो शिव 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 भो श्री महादेव शम्भो नो शक्यं स्मार्तकर्म प्रतिपदगहने प्रत्यवायाकुलाढ्ये श्रौते वार्ता कथं मे द्विजकुलविहिते ब्रह्ममार्गानुसारे तत्त्वे ज्ञाते विचारे श्रवणमननयोः किं निदिध्यासितव्यं क्षन्तव्यो मे पराधः शिव 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 भो श्रीमहादेव शम्भो। ध्यात्वा चित्ते शिवाख्यं ध्यात्वा चित्ते शिवाख्यं प्रचुरतरधनं प्रचुरतरधनं नैव दत्तं द्विजेभ्यो नैव दत्तं द्विजेभ्यो हव्यं ते लक्षसङ्ख्यैर्हुतवः वदने हव्यं ते लक्षसङ्ख्यैर्हुतवः वदने नार्पितं बीजमन्त्रैः नार्पितं बीजमन्त्रैः नोतप्तं गाङ्गतीरे नोतप्तं गाङ्गतीरे व्रतजपनियमैः व्रतजपनियमैः रुद्रजाप्यं न जप्तम् रुद्रजाप्यं न जप्तम् क्षन्तव्यो मे पराधः क्षन्तव्यो मे पराधः शिव 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 भोः श्रीमहादेव शम्भो शिव 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 भोः श्रीमहादेव शम्भो। ध्यात्वा चित्ते शिवाख्यं प्रचुरतरधनं नैव दत्तं द्विजेभ्यो हव्यं ते लक्षसङ्ख्यैर्हुतवः वदने नार्पितं बीजमन्त्रैः नोतप्तं गाङ्गतीरे व्रतजपनियमैः रुद्रजाप्यं न जप्तं क्षन्तव्यो मे पराधः शिव 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 भोः श्रीमहादेव शम्भो। नग्नो निःसङ्गशुद्धः नग्नो निःसङ्गशुद्धः त्रिगुणविरहितो त्रिगुणविरहितो ध्वस्तमोहान्धकारो ध्वस्तमोहान्धकारो नासाग्रन्यस्तदृष्टिर्विदितभवगुणो नासाग्रन्यस्तदृष्टिर्विदितभवगुणो नैव दृष्टः कदाचित् नैव दृष्टः कदाचित् उन्मन्यावस्थया त्वाम् उन्मन्यावस्थया त्वाम् विगतगतिमतिः विगतगतिमतिः शङ्करं न स्मरामि शङ्करं न स्मरामि क्षन्तव्यो मे पराधः क्षन्तव्यो मे पराधः शिव 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 भोः श्रीमहादेव शम्भो शिव 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 भोः श्रीमहादेव शम्भो। नग्नो निःसङ्गशुद्धः त्रिगुणविरहितो ध्वस्तमोहान्धकारो नासाग्रन्यस्तदृष्टिर्विदितभवगुणो नैव दृष्टः कदाचित् उन्मन्यावस्थया त्वां विगतगतिमतिः शङ्करं न स्मरामि क्षन्तव्यो मे पराधः शिव 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 भोः श्रीमहादेव शम्भो। स्थित्वा स्थाने सरोजे स्थित्वा स्थाने सरोजे प्रणवमयमरुत्कुम्भिते सूक्ष्ममार्गे प्रणवमयमरुत्कुम्भिते सूक्ष्ममार्गे शान्ते स्वान्ते प्रलीने शान्ते स्वान्ते प्रलीने प्रकटितविभवे प्रकटितविभवे दिव्यरूपे शिवाख्ये दिव्यरूपे शिवाख्ये लिङ्गाग्रे ब्रह्मवाक्ये लिङ्गाग्रे ब्रह्मवाक्ये सकलतनुगतं सकलतनुगतं शङ्करं न स्मरामि शङ्करं न स्मरामि क्षन्तव्यो मे पराधः क्षन्तव्यो मे पराधः शिव 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 भो श्री महादेव शंभो शिव 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 भो श्री महादेव शंभो स्थित्वा स्थाने सरोजे प्रणवमय मरुत्कुंभिते सूक्ष्ममार्गे शान्ते स्वान्ते प्रलीने प्रकटित विभवे दिव्यरूपे शिवाख्ये लिंगाग्रे ब्रह्मवाक्ये सकलतनुगतं शंकरं नस्मरामि क्षन्तव्यो मे पराधः शिव 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 भो श्री महादेव शंभो हृद्यं वेदांत वेद्यं हृद्यं वेदांत वेद्यं हृदय सरसिजे दीप्तमुद्यत् प्रकाशं दीप्तमुद्यत् प्रकाशं सत्यं शांतस्वरूपं सत्यं शांतस्वरूपं सकलमुनिमनः पद्मषण्डैकवेद्यं जाग्रत्स्वप्ने सुषुप्तौ त्रिगुणविरहितं शंकरं नस्मरामि क्षन्तव्यो मे पराधः शिव 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 भो श्री महादेव शंभो शिव 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 भो श्री महादेव शंभो हृद्यं वेदांत वेद्यं हृदय सरसिजे दीप्तमुद्यत् प्रकाशं सत्यं शांतस्वरूपं सकलमुनिमनः पद्मषण्डैकवेद्यं जाग्रत्स्वप्ने सुषुप्तौ त्रिगुणविरहितं शंकरं नस्मरामि क्षन्तव्यो मे पराधः शिव 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 भोः श्री महादेव शंभो चन्द्रोद्भासित शेखरे स्मर हरे चन्द्रोद्भासित शेखरे स्मर हरे गंगाधरे शंकरे सर्पैर्भूषित कंठ कर्ण विवरे सर्पैर्भूषित कंठ कर्ण विवरे नेत्रोत्थ वैश्वानरे नेत्रोत्थ वैश्वानरे दन्तित्वकृत सुन्दराम्बरधरे दन्तित्वकृत सुन्दराम्बरधरे त्रैलोक्य सारे हरे त्रैलोक्य सारे हरे मोक्षार्थं कुरु चित्तवृत्तिम् अमलाम् मोक्षार्थं कुरु चित्तवृत्तिम् अमलाम् अन्यैस्तु किं कर्मभिः अन्यैस्तु किं कर्मभिः चन्द्रोद्भासित शेखरे स्मर हरे गंगाधरे शंकरे सर्पैर्भूषित कंठ कर्ण विवरे नेत्रोत्थ वैश्वानरे दन्तित्वकृत सुन्दराम्बरधरे त्रैलोक्य सारे हरे मोक्षार्थं कुरु चित्तवृत्तिम् अमलाम् अन्यैस्तु किं कर्मभिः किं यानेन धनेन वाजिकरिभिः किं यानेन धनेन वाजिकरिभिः प्राप्तेन राज्येन किं प्राप्तेन राज्येन किं किं वा पुत्रकळत्रमित्रपशुभिः किं वा पुत्रकळत्रमित्रपशुभिः देहेन गेहेन किं देहेन गेहेन किं ज्ञात्वैतत्क्षणभङ्गुरं सपदिरे ज्ञात्वैतत्क्षणभङ्गुरं सपदिरे त्याज्यं मनो दूरतः त्याज्यं मनो दूरतः स्वात्मार्थं गुरुवाक्यतो भजमन स्वात्मार्थं गुरुवाक्यतो भजमन श्रीपार्वती वल्लभं श्री पार्वती वल्लभम् किं यानेन धनेन वाधिकारिभिः प्राप्तेन राज्येन किं किं वा पुत्रकळत्रमित्रपशुभिः देहेन गेहेन किं ज्ञात्वैतत्क्षणभङ्गुरं सपदिरे त्याज्यं मनो दूरतः स्वात्मार्थं गुरुवाक्यतो भजमन श्रीपार्वतीवल्लभम् पौरोहित्यं रजनिचरितं ग्रामणीत्वं नियोगो माठापत्यं ह्यनृतवचनं साक्षिवादः परान्नम् ब्रह्मद्वेषः खलजनरतिः प्राणिनां निर्दयत्वं मा भूदेवं मम पशुपते जन्मजन्मान्तरेषु पौरोहित्यं रजनिचरितं ग्रामणीत्वं नियोगो माठापत्यं ह्यनृतवचनं साक्षिवादः परान्नं ब्रह्मद्वेषः खलजनरतिः प्राणिनां निर्दयत्वं मा भूदेवं मम पशुपते जन्मजन्मान्तरेषु आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं प्रत्यायान्ति गताः पुनर्न दिवसाः कालो जगद्भक्षकः लक्ष्मीस्तोयतरङ्गभङ्गचपला विद्युच्चलं जीवितं तस्मान् मां शरणागतं करुणया त्वं रक्ष रक्षाधुना आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं प्रत्यायान्ति गताः पुनर्न दिवसाः कालो जगद्भक्षकः लक्ष्मीस्तोयतरङ्गभङ्गचपला विद्युच्चलं जीवितं तस्मान् मां शरणागतं करुणया त्वं रक्ष रक्षाधुना शिवापराधक्षमापणस्तोत्रं सम्पूर्णम्।